नमो नमः प्रियाः श्रोतृवृन्दाः, कथं सन्ति भवन्तः? आशासे यत् भवन्तः सर्वे समीचीनाः सन्ति इति। अहमस्मि भवतां मित्रम् उद्घोषकः च पुनीत त्रिपाठी। आगतोऽस्मि नीत्वा च आकाशवाण्याः संस्कृताधारितं संस्कृत साप्ताहिकीति कार्यक्रमम्। स्वागतमस्ति भवतां समेषां कार्यक्रमेऽस्मिन्। श्रोतारः, अस्मिन् कार्यक्रमे भवन्तः सर्वे क्रमेण श्रोष्यन्ति सुभाषितम्, प्रसंगः, साप्ताहिकी वार्ताः, ज्ञानविज्ञानम्, बालवल्लरी, एकभारत श्रेष्ठ भारत सदृशाः नैके प्रभागाः। तर्हि आगच्छन्तु चलामः तावत् सुभाषित प्रभागं प्रति। यो हि प्रस्तौति साधना शर्मा।
विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः, यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृति सिद्धमिदं हि महात्मनाम्।
धन्यवादाः साधनायै। अग्रिम प्रभागोस्ति प्रसंग प्रभागः। यो हि प्रस्तूयते अस्माकीनया सहयोगिनया रिंकू जोशी इत्यनया। शृण्मस्तावत् किं श्रावयति सा।
कावेरी कानैर्मदयोः पवित्रे समागमे सज्जनतारणाय, सदैव मान्धाम् त्रिपुरे वसन्तम् ओंकारमीशम् शिव मे कमीडे, ओंकारमीशम् शिव मे कमीडे।
श्रोतारः, सम्प्रति साहित्य संगीताभ्याम् अग्रे चलामः, अपि च पश्यामः यत् देशे विदेशे च किं किं जायमानं वर्तते। तदेव तृतीयं प्रभागं साप्ताहिकी वार्ताः नीत्वा उपस्थितास्ति मम सहयोगिनी सुषमा कुमारी। बृहत्तमं ज्ञानात् पूर्वं सामान्य ज्ञानं तु अपेक्षते एव, तर्हि ध्यानेन शृण्वन्तु।
पवित्र कावड़यात्रा प्रारब्धास्ति। उत्तराखण्ड उत्तर प्रदेशीय प्रशासनेन च सर्वविधोपायाः उपकल्पिताः। संसदि आय व्यय सत्रं प्रारब्धम्। वित्तमन्त्री निर्मला सीतारमणः लोकसभायाम् आर्थिक सर्वेक्षणं प्रस्तुतवती। भारतीय जनता पार्टी इति दलस्य सांसदेन अनुराग सिंह ठाकुरेण कांग्रेस दलं कट्वालोच्य प्रोक्तं यत् दलमिदं सर्वदा संविधानस्य अपमानं करोति। विद्यालयीय शिक्षा साक्षरता विभागेन च शिक्षा सप्ताहः आमानितः। कार्यक्रमोऽयं मासस्य अस्य 26 तारिकां यावत् प्रचलितः। प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्ल्यां भारत मण्डपम् इति स्थले विश्व रिक्थ समित्याः 46वां सत्रं समुद्घाटितम्।
प्रियाः श्रोतारः, सम्प्रति ज्ञान विज्ञान प्रभागस्य समयः अर्थात् सामान्य ज्ञानानन्तरं विशिष्ट ज्ञानस्य समयः। प्रभागेऽस्मिन् एकेन विशिष्टातिथिना सह छात्र समाजोपयोगी च विषये चर्चा भविष्यति। अद्यतनीयेऽस्मिन् चर्चायां निधिना सह विराजन्ते काशी हिन्दू विश्वविद्यालयस्य आचार्याः, सोमनाथ संस्कृत विश्वविद्यालयस्य कुलपतिचराः प्रोफेसर गोपबन्धु मिश्र महाभागाः। तैः सह चर्चायां संलिप्ता भविष्यति मम सहयोगिनी निधि तिवारी। आगच्छन्तु वयमपि अस्मिन् चर्चायां ज्ञानेनानन्दम् अनुभवामः।
नमो नमः प्रियाः श्रोतारः, आकाशवाणी पक्षतः प्रतिसप्ताहं प्रचल्यमाणे संस्कृत साप्ताहिकीति कार्यक्रमे ज्ञान विज्ञानानुभागे अत्र अस्माभिः सह समुपस्थिताः सन्ति सोमनाथ संस्कृत विश्वविद्यालयस्य कुलपतिचराः, संस्कृत भारत्याः अखिल भारतीयाध्यक्षाः, अपि च काशी हिन्दू विश्वविद्यालये अध्यापनरताः प्रोफेसर गोप बन्धु मिश्र महाभागाः। नमो नमः आचार्य।
नमो नमः।
आयान्तो साक्षात्कार प्रभागोऽयं प्रारम्भीक्रियते। अस्तु आचार्य, जिज्ञासेयं वर्तते, आधुनिके समये यदा प्रौद्योगिक्याः उपयोगः जनैः क्रियते समाचर्यते च, जनाः अतिव्यस्ताः भवन्त्येव, निज विकासाय उतवा मानसिक शान्तये ते खिन्ना भवन्ति, एवं तावत् तेषां मानसिक द्वन्द्वाय अथ च दुःखानां निवारणाय संस्कृत शास्त्राणां कीदृशीम् उपयोगितां भवान् अवलोकयति, एवं कृपया।
वस्तुतः यथा समयः परिवर्तते, नवीनः प्रयोगः क्रियन्ते सर्वेषु क्षेत्रेषु, प्रौद्योगिकक्षेत्रे परिवर्तनम् आगतम्, इदानीं भाषाशिक्षणे अपि भाषाप्रयोगे अपि व्यवहारकौशलं संवर्धितम्। पूर्वतनकाले यथा श्रौतपरम्परा आसीत्, सा परम्परा तस्मिन् समये सर्वोत्कृष्टा आसीत्। अनन्तरकाले पुनः पुस्तकलेखनम् आरब्धं, प्रकाशनम् आरब्धं, तदपि उत्तमम् आसीत्। पुनः तदनन्तरम् इदानीं सङ्गणकयुगः युगमस्ति, पुनः विविधरूप प्रौद्योगिकयन्त्राणि आगतानि, तत्र तेषाम् उपयोगः। यथा यथा समयः परिवर्तते तथा तथा संस्कृतजनाः अपि तस्य उपयोगं कृत्वा स्वप्रयोगं कथं सारल्येन सर्वजनग्राह्यं कर्तुं शक्नुवन्ति तथा प्रयत्नं कुर्वन्ति। अतः प्रौद्योगिक्याः इदानीन्तनकाले भाषाशिक्षणावसरे दृश्यश्रव्यमुखेन, पुनः विविध लघु लघु चित्र संग्रहमुखेन, लघु लघु पाठ्यपुस्तक ग्रहण द्वारा, कोशग्रन्थ निर्माण द्वारा विविध कौशलं संवर्धितं जायमानम् अस्ति। एकः एषः पक्षः। द्वितीयः पक्षः यथा भवत्या पृष्टः, इदानीन्तनकाले बहु स्ट्रेस् अस्ति, बहु किमपि मानसिक द्वन्द्वः भवति, सन्ताप भवति, विशिष्टतया यूनां मध्ये बहु नैराश्यम् आगच्छति, तत् धावन क्रियायां कश्चित् पृच्छे भवति, कश्चित् अग्रे भवति, तेन कारणेन मानसिक द्वन्द्वः आपतति। तदवसरे संस्कृतभाषा निहिताः विषयाः ये सन्ति, एषा केवलम् एका भाषा नास्ति, तथा अस्माकं जीवनस्य गतिद्वयं भवति। एका गतिः भवति दैनिकगतिः, प्रातरारभ्य सायं रात्रि विश्रामं जावत् एका गतिः, किञ्च शैशवतः आरभ्य वार्धक्यम् मरणं जावत् एका गतिः भवति। उभयगतिविषये किं करणीयम्, अर्थात् दैनिकं किं करणीयं, कथं करणीयं तद्विषये, किञ्च शैशवतः आरभ्य वार्धक्यं जावत् किं किं करणीयं तद्विषये सर्वथा उपयोगी विषयाः उक्ताः सन्ति। शैशवे भ्रष्टविद्यानां, यौवने विषयिषीणाम् इति तत्तत् विषयाः, ते विषयाः उक्ताः सन्ति। शैशवात् आरभ्य कथं जीवनं यापनीयं, कथं नियन्त्रणं करणीयं, किञ्च प्रातः किं करणीयं, प्रातः जागरणं शीघ्रतया कृत्वा, अथवा प्रातः जागरणात् आरभ्य कथं भोजनमन्त्रः, भोजनप्रसङ्गः, पुनः कार्यप्रसङ्गः, पुनः विश्रान्तिप्रसङ्गः, सर्वविधप्रसङ्गेषु यदि साक्षात् तस्य उपयोगः करिष्यते तर्हि संस्कृतभाषा नीतेषु ग्रन्थेषु, गीतादिग्रन्थेषु, योगसूत्रेषु, इतरेषु अपि प्रसङ्गेषु तथा तथा अस्ति जीवनशैली विषये कोऽपि जनः, तत्र कोऽपि किमपि आरक्षणं नास्ति, कोऽपि श्रेष्ठः ज्येष्ठः विद्वान् अथवा धनिकः एवं कश्चित् भेदः नास्ति, भेदभावरहित्येन सह कश्चिदपि जनः तादृशीं जीवनशैलीं स्वीकरोति चेत् सः जीवनस्य दैनिकगतिं किञ्च जीवनस्य जीवनगतिं सम्पूर्णशैशवतारभ्य अन्तिमसमयं यावत् सुष्ठुतया अविषण्णतया आनन्देन एतत् जीवनं जीवितुं शक्नोति। जेन उपायेन मानवजीवनम् अतीव दुर्लभमस्ति तस्य सम्यक् उपयोगं कृत्वा स्वस्य कल्याणं, तेन सह संसारस्य, राष्ट्रस्य, विश्वस्य कल्याणमपि साधयितुं शक्नोति एव। अतः ते विषयाः पाठ्यपुस्तके पुस्तकमाध्यमेन, पुञ्च व्यवहारमाध्यमेन, एतस्याः भाषायाः प्रयोगद्वारा, इदानीं बहुविधाः प्रयोगाः जायमानाः सन्ति, मन्त्राणाम् उच्चारणद्वारा अपि संस्कारः आपतति, मनसि शान्तिः आगच्छति। मन्त्राः केवलं शब्दसमूहाः न, तेषां प्रयोगद्वारा अपि बहु जीवने तादृशी शान्तिः, सद्भावः, सौमनस्यम्, उत्तमचेतना, चेतनायाः विकासः वर्धते, चेतनास्तरः विकसितः भवति, सच्चिदानन्दरूपं ब्रह्म तस्य साक्षात् अंशविशेषरूपेण आत्मनः अनुभूतिः भवति। तादृश बहु प्रयोगाः संस्कृतमाध्यमेन क्रियमाणाः सन्ति, तेषां स्वीकरणेन बहु महान् लाभः भवति, भविष्यति इत्यत्र नास्ति सन्देहः।
मयापि श्रुतं यत् चिकित्सालयेषु अपि ये चिकित्सकाः सन्ति ते मन्त्रैः सह
एवं कुर्वन्ति. इदानीं ओम् इत्यस्य उच्चारणेन, गायत्रीमन्त्रस्य प्रभावेन बहुविध उपशमनं भवति, तात्कालिक उपशमनं भवति, निरन्तराभ्यासद्वारा जीवने परमशान्तिः भवति. इदानीं यथा अस्माभिः दृश्यते बहु धनविषये विविध भौतिक साधन विषये प्रगतिं कृत्वापि मनसि शान्तिः न आगच्छति चेत् तत्र तत्र एतस्य कार्यालयेषु अपि कश्चित् कालः योगनिष्ठतया व्यतीयमानः भवति चेत् तस्य उत्तमः प्रभावः भवति. न केवलं शान्तिः अपि तु प्रोडक्टिविटि अपि, अर्थात् तत्र कार्य फलश्रुतिः अपि सम्यक् भवति, उत्तमः परिणामः आगच्छति, उत्तमानि फलानि भवन्ति, अधिक उद्योग अधिक लाभः अपि भवति. एतदपि दृष्टं जनाः परीक्षितम् तत्त्वं कृत्वा ज्ञातवन्तः यत् केवलम् आन्तरिकशान्तिः न, बाह्यविकासः अपि भवति, भौतिकविकासः अपि भवति. अतः तद्विषये वयं सावधाना भवामः चेत् उत्तमं भविष्यति.
अस्तु आचार्य, मया श्रुतं यत् भवान् अनेकेषु वैदेशिकीय विश्वविद्यालयेषु अपि संस्कृतभाषायाः प्रसारार्थं प्रचारार्थं च गतवान्. तावत् वैश्विकपटले संस्कृतभाषायाः स्थितिः भवान् कथं प्रतिपादयति? यतोहि एतस्याः भाषायाः भाषा वैज्ञानिकता अपि पाश्चात्यविद्वद्भिः भारतीयमनीषिभिः एवं प्रतिपादिता.
संस्कृतभाषा यथा मया उक्तम् सामान्य इतरभाषावत् एका भाषा अस्ति, तत्र वाक्यानि भवन्ति, पुनः कौशलं भवति, विविधाः प्रयोगाः भवन्ति, किन्तु एषा भाषा केवलम् एका भाषा मात्रम् अस्ति इति तथा इदानीं जनाः अवगच्छन्ति. अतः वैदेशेषु अपि यथा एकम् उदाहरणं तत्र मया पाठितं, कराग्रे वसते लक्ष्मीः, करमध्ये सरस्वती, करमूले तु गोविन्द प्रभाते, करदर्शनम्. करदर्शनविधिः एवं रीत्या प्रातः जागरणेन सह आदौ करदर्शनम् करणीयम्. पुनः समुद्रवसने देवी, पर्वतस्तनमण्डले, विष्णुपत्नी, नमस्तुभ्यं, पादस्पर्शं क्षमस्व मे, एषा मम माता अस्ति, मम पादस्पर्शः मया क्रियते इति क्षमा प्रार्थनापूर्वकं करणीयम् इति तथा मया कथितम्. ते बहु आश्चर्यचकितः जातः. एतादृशबोधः जीवने प्रारम्भतः, अर्थात् जीवन प्रातःकालतः एतेन बोधेन सह जीवनस्य प्रारम्भः भवति चेत् तादृशं बोधं जनयितुं संस्कृतभाषा कथं समर्था भवति. अतः व्यवहारे केवलं भाषणे न केवलं भाषा उत्तमा अस्ति सम्यक् ते तथा प्रारब्धवन्तः. मया तु पाठितं किमपि करोतु तथा ते प्रातः अहं करोमि, इदानीं बहु आनन्द, इदानीं कराग्रहं दृष्ट्वा एवं कृत्वा पादस्पर्शं क्षमस्व हे मातः. मातृत्वबोधः, मदर्लैण्ड् इति उच्यते, केवलं मदर्लैण्ड् इति शब्दः न,
साक्षात्
प्रायोगिकरूपेण माता अस्ति, अतः तस्याः उपरि पादस्पर्शं करोमि इति अपराधबोधः अस्ति. क्षमाप्रार्थनां पूर्वकं जीवनस्य प्रारम्भः भवतु. तादृशबोधं जनयितुं संस्कृतभाषा क्षमा अस्ति. तादृश तेषां किं वैशिष्ट्यं नाम वैदेशिकानां, ते यत् स्वीकुर्वन्ति युक्ति, वयं तु वदामः अस्माकं सुभाषितानि सन्ति, युक्तियुक्तं वचोग्राह्यं बालादपि शुकादपि, युक्तिहीनं वतस्त्याज्यं वृद्धादपि शुकादपि वदामः, किन्तु ते आचरन्ति. साक्षादुक्तं चेत् तस्य एषः एतत् महत्वम् अस्ति, महत्वं विविच्य विमृश्य तस्य आचरणस्य कृते प्रवृत्तिं ते साधयन्ति, ते तत् प्रवृत्ता भवन्ति. तादृश एषा बोधः, अहं पुत्रः, पृथिव्याः पुत्रः, पृथिवी मम माता, मातृत्वबोधः. एतत् पुनः सङ्गत्सत्वं सम्बद्धत्वम् इति सह न भवतु, सह नौ भुनोतु, सह विजयं करवा वहै, तेषु तेषु मन्त्रेषु यद् वैशिष्ट्यमस्ति तत् ज्ञात्वा तस्य आचरणं कुर्वन्ति, तादृशं बोधम् आत्मनि जनयन्ति. अतः तत्तत् अवसरे तेषां पुरतः संस्कृतभाषायाः गुणगानं मया न विहितम्. प्रयोगद्वारा तेषु प्रसङ्गेषु निहितानि तत्त्वानि तेषां बुद्धौ प्रविशन्तु, तादृशः यत्नः विहितः. तेन तेषां केवलम् आनन्दः न, तेषां महती उपलब्धिः अपि. जीवने एतादृशबोधः मम जातः नास्ति, नासीत्. इदानीं केवलं भौतिकसाधनानि पर्याप्तानि सन्ति, किन्तु परस्परं सर्वे समानाः वयम्, एकं सर्वं खलु इदं ब्रह्म, अहं ब्रह्मास्मि, उत्तमसि इति एतादृशबोध प्रसङ्गे संस्कृतशास्त्रेषु निहितमस्ति. तत् केवलं शास्त्रीयं न, एकमपि शास्त्रं मया तत्र विहितं कथितम्, अस्माकम् एकमपि शास्त्रं भवतु नाम वेदान्तशास्त्रम् व्याकरणशास्त्रम् साहित्यशास्त्रम् काव्यशास्त्रम् किमपि लोकम् विहाय न अलौकिकम् न लोकानाम् कृते अस्ति लोकानाम् उपकारणाय अस्ति कल्याणाय अस्ति सर्वविधम् शास्त्रम् लोकाश्रितमेव लोकाय एव एवं शास्त्रम् भिन्नम् लोकः भिन्नः इति तथा अस्माकम् नास्ति अहम् ब्रह्मास्मि केवलम् शास्त्रेषु भवेत् तथा न अहम् ब्रह्मास्मि तादृशः बोधः सर्वेषाम् अन्तःकरणे भवतु इति शास्त्रस्य तत्रैव सार्थकता तादृशसार्थकता वयमपि तादृशसार्थकताम् वयमपि अनुभवितुम् शक्नुमः तादृशव्यवहारः क्रियते चेत् स्वयमेव ते विषयाः ते बोधाः अवतरन्ति तादृशबोधः कश्चित् मया प्रयासः विहितः तेन तेषाम् आनन्दः अपि उपलब्धिः अपि पुनः सहयोगः अपि ओ एवम् भवान् एवम् वदति अथवा शास्त्रेषु एवमेव विषयाः सन्ति तद् ज्ञात्वा अतः विदेशेषु अपि बहु अपेक्षा अस्ति भारतीयशास्त्रस्य विषये ज्ञानविज्ञानपरम्परायाः विषये संस्कृतभाषायाः सामर्थ्यविषये संस्कृतभाषाप्रयोगद्वारा जीवने यथसम्भावित परिवर्तनविषये बहु तेषाम् आग्रहः आनन्दः अस्ति अतः तद्विषये अस्माकम् स्वपक्षतः आत्मनि हीनभावना न स्यात् संस्कृतम् एवमस्ति 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 संस्कृतं महत्वपूर्णमस्ति चेत् तस्य उपयोगः करणीयः
अस्तु आचार्य आकाशवाणीदलाय भवता प्रदत्तः समयः शुभकरः भवेदिति मनसि निध्याय साक्षात्काराय नमो वचांसि धन्यवादान् च समर्पयामि धन्यवादाः नमो नमः
धन्यवादाः नमो नमः
बहुमूल्य प्रकल्पित समयाय भूरिशः धन्यवादाः महोदयाय बालाः बालवल्लरि प्रभागः समागतः यस्मिन् भवताम् बुद्धेः विकासः नीतिगत शास्त्र सम्मित कथया प्रहेलिकया च भविष्यति अस्माकम् सहयोगी कृष्णप्रसादोपाध्यायः अद्यापि बालकेभ्यः किम् प्रवदति
अयि भो बालवल्लर्याः श्रोतारः शृण्वन्तु तावत् एकाम् विनोदकणिकाम् निशीथे फ्रिज इति प्रशीतकयन्त्रे स्थापितम् खरबुजा नामकम् फलम् निष्कास्य कर्तयित्वा च श्रीमान् किशोरकुमारः खादितवान् परम् फलम् तावन्मिष्टम् नासीत् प्रातः उत्थाय श्रीमतीवर्याया पारेशतवारम् पृष्टम् यत् प्रशीतकयन्त्रे सीताफलम् इति शाकम् आसीत् भवता दृष्टम् वा ओहोहोहो तेन तु खर्बुजा फलम् मत्वा तदेव खादितम् स्यात्
श्रोतारः एक भारत श्रेष्ठ भारतम् इत्येतस्य अनुभागस्य कार्यक्रमस्यान्तर्गतम् राज्यानाम् केन्द्रशासित प्रदेशानाम् च जनानाम् मध्ये पारस्परिक विचाराणाम् अवगमनम् च निहितमस्ति अस्तु अस्माकम् सहयोगिनी मुदिता वेतालः प्रभागम् एनम् कथम् कथयति आगच्छन्तु शृण्वन्तु
प्रथमम् वाक्यमस्ति पुराणस्य शाब्दिकः अर्थः कः पहला वाक्य है पुराण का शाब्दिक अर्थ क्या है मराठी में पुराण याचा अर्थ काय द्वितीयम् वाक्यमस्ति पुराण शब्दस्य अर्थः प्राचीनः अस्ति दूसरा वाक्य है प्राचीन पुराण शब्द का अर्थ है मराठी में पुराण या शब्दाचा अर्थ प्राचीन अस आहे तृतीयम् वाक्यमस्ति पुराणानाम् रचनायै कस्याः भाषायाः प्रयोगः अभवत् तीसरा वाक्य है पुराणों की रचना के लिए किस भाषा का प्रयोग हुआ है मराठी में पुराणांच्या रचनेसाठी कोणत्या भाषेचा प्रयोग झाला धन्यवादाः
अहो वार्ता मध्ये कदा समयो व्यतीतः अभिज्ञातमेव न मित्राणि कार्यक्रमस्य गुणवत्ता संवर्धने भवताम् समेषाम् प्रतिपुष्टि प्रक्रिया अस्मान् प्रेरयति तथा च भवताम् निजसन्देशाः कार्यक्रमम् प्रति अस्मभ्यम् प्रेरणादायकाः भवन्ति भवन्तः सर्वे स्वीयसन्देशाः nhd@gmail.com इत्यत्र प्रेषयित्वा अस्मान् अनुगृहीताः कुर्वन्तु आगामि सप्ताहे पुनर्मिलामः तावत्पर्यन्तम् नमो नमः जयतु संस्कृतम् जयतु भारतम्